సామిత్రమష్టాకపాలం ప్రాధన్యర్వపదే అష్టాక్షరా గాయత్రే గాయత్రం ప్రాతస్సవనం ప్రాతస్సవనా దేవైనం గాయత్ర్యాశ్చందసోషిర్మిమేతే ప్రాతస్సవనమేవ తేనాత్మోది గాయత్రేం ఛందః సవిత్రే ప్రసవిత్రయేకాదశకపాలం మధ్యందినే ఏకాదశాక్షరాత్రిష్టుపే తేష్టుభం మాధ్యందినకం సవనం మాధ్యందినా దేవైనకం సవనాత్రిష్టుభశ్చందసోషిర్మిమేతే అథో మాధ్యందినమేవ సవనం తేనాత్మోది దృష్టుభం ఛందః సవిత్రే ద్వాదశకపాలమపరాహ్నే ద్వాదశాక్షరా జగతి జాగతం తదీయసవనం తదీయసవనాదేవైనం జగత్యాశ్చందసోషిర్మిమేతే అసో తదీయసవనమేవ తేనాప్నోది జగతేం ఛందః ఈశ్వరో వాశ్వప్రవక్తః పరాంపరావతం గంధో ఇహ సృతి స్వాహేహ విధృతి స్వాహేహరంధి స్వాహేహరమతి స్వాహేర్జుతస్రాహుతేర్జుహోది తిరస్రోతిశః దిగ్భేవేనం పరిగృహ్ణాది ఆశ్వత్సో వ్రజోభవతి ప్రజాపతిర్దేవేభ్యో నిదాయత అశ్వరూపం కృత్వా సోశ్వత్థేదం వత్సరపతిష్ఠత్ తదశ్వత్థస్యాశ్వత్థత్వం ఇదాశ్వత్థో వ్రజోభవతి స్వగేవైనయ్యో నవ ప్రతిష్టాపయతి ఆ బ్రహ్మన్ బ్రాహ్మణో బ్రహ్మవత్సేరాయుదామిత్యాహ బ్రాహ్మణగేవ బ్రహ్మవత్సందధాతి తస్మాత్ పురా బ్రాహ్మణా బ్రహ్మవత్సస్య జాయత ఆస్మిన్ రాష్ట్రే రాజన్యశవ్యశూరో మహారథో జాయతామిత్యాహ రాజన్యగేవ శౌర్యం మహిమానందధాతి తస్మాత్ పురా రాజన్యశవ్యశూరో మహారథో జాయత దోగ్ధేధేనరిత్యాహ ధేన్వామేవమయోదధాతి తస్మాద్పురాదోగ్రీఠేనురజాయత గోఢానడ్వానిత్యాహ అనుడహ్యేవ వీర్యం దధాతి తస్మాద్పురా వోఢానడ్వానజాయత ఆశుసప్తిరిత్యాహ అశ్వయేవ జవం దధాతి తస్మాద్పురాశురశ్వో జాయత పురంధిర్యోషేత్యాహ యోషిత్యేవ రూపం దధాతి తస్మాత్ శ్రీయమతి ప్రియాభావుగా జిష్ణోరథేష్ట ఇత్యాహ ఆహవై తత్ర జిష్ణోరథేష్ట జాయతే యత్ర ఇదేన యజ్ఞేన ఇరందే సభే యోయువేత్యాహ యో వై పూర్వయసి సభే యోయువా తస్మాద్యుమాపుమాన్ ప్రియోభావుకః ఆస్య యజమానస్య వీరో జాయతామిత్యాహ ఆహవై తత్ర యజమానస్య వీరో జాయతే ఎత్రైతేన యజ్ఞేన ఇరందే నికామే నికామేన పర్జన్యా వర్షత్విత్యాహ నికామే నికామే హవే తత్ర పర్జన్యా వర్షతి ఎత్రైతేన యజ్ఞేన ఇరందే ఫలిన్యో నవోషధయ పచ్యంతామిత్యాహ ఫలిన్యో హవే తత్ర ఔషధయ పచ్యంతే ఎత్రైతేన యజ్ఞేన ఇరందే యోగక్షేమో నః కల్పతామిత్యాహ కల్పతే హవీతత్ర ప్రజాభ్యో యోగక్షేమః ఎత్రైతేన యజ్ఞేన ఇరందే ప్రజాపతిర్దేవేభ్యో యజ్ఞాన్ వ్యాదిశత్ సహ ఆత్మన్నస్వమేధమధత్త తం దేవాబ్రువన్ ఏషవావ యజ్ఞః యజస్వమేధః అప్యేవనోత్రాస్తి తేభ్య ఏతాన్న హోమాన్ ప్రాయచ్ఛత్ తాన జుహోదే ఐర్వైత దేవాన ప్రీణాద్ హిరణ్య హోమాన్ జుహోది దేవానేవతైర్యజమాన ప్రీణాది ఆజ్యేన జుహోది అగ్నేర్వా ఏతద్రూపం యదాజ్యం యదాజ్యేన జుహోది అగ్నిమేవతత్ప్రీణాది మధురా జుహోది మహత్యైవా ఏతద్దేవతాయీ రూపం యన్మధు యన్మధునా జుహోది మహతీమేవతద్దేవతాం ప్రీణాది తండులైర్జుహోది వధూనాం వా ఏతద్రూపం యత్తండులాః యత్తండులైర్జుహోది వసూనేవ తత్ప్రీణాది పృథుకైర్జుహోది వృద్ధానాం వా ఏతద్రూపం యత్పృథుకాః यत्पृथुकैर्जुहोजे रुद्राणेव तत्प्रेणाति राजैर्जुहोजे आदित्यानाम् वा एतद्रूपम् यल्लाजाः यल्लाजैर्जुहोजे आदित्यानेव तत्प्रेणाति करम्भैर्जुहोजे विश्वेदाम् वा एतद्देवानागम् रूपम् यत्करम्भाः यत्करम्भैर्जुहोजे विश्वानेव तद्देवान् प्रेणाति धानाभिर्जुहोदे नक्षत्राणाम् वा एतद्रूपम् यद्धानाः यद्धानाभिर्जुहोदे नक्षत्राण्येव तत्प्रेणाति सक्तुभिर्जुहोदे प्रजापतिर्वा एतद्रूपम् यत्सक्तवः यत्सक्तुभिर्जुहोदे प्रजापतिमेव तत्प्रेणाति मसोऽस्येर्जुहोदे सर्वासाम् वा एतद्देवतानागम् रूपम् यन्मसोऽस्यामि यन्मसोऽस्यैर्जुहोदे सर्वा एव देवदेवताः प्रेणादे प्रियङ्कुतण्डुवैर्जुहोदे प्रियाङ्गाहवैनामैजे एतैर्वै देवास्वस्याङ्गानि समदधः यत्प्रियङ्कुतण्डुलैर्जुहोदे अश्वस्यैवाङ्गानि सन्दधादे दशान्नानि जुहोदे दशाक्षरा विराट् विराग्रस्यान्नाद्यस्यावरुध्यये प्रजापतिरश्वमेधमसृजत तगुम् दृष्टगुम् रक्षाकस्य विघागुम् धन् स्वगेतान् प्रजापतिर्नक्तगम् भवमानपश्यत् तान् जुहोद् तैर्वेदयज्ञान् रक्षाकस्य वाहन् यन्नक्तगम् भवमान् जुहोदे यज्ञादेवतैर्यजमानो रक्षाकस्य वहन्ते आर्जेर्जुहोदे वज्रो वा आज्यम् वज्रेणैव यज्ञान् रक्षाकस्य वहन्ते आज्यस्य प्रतिपदम् करोति प्राणो वा आज्यम् मुखदेवास्य प्राणम् दधाति अन्नहोमाञ्जुहोदे शरीरवदेवावरुन्धे गत्यासञ्जुहोदे उभयस्यावरुध्ये रक्तञ्जुहोदे रक्षतापहत्ये आज्येनाम् ततो जुहोदे प्राणो वा आज्यम् उभयदेवास्य प्राणम् दधाते पुरस्ताच्चोपरिष्टाच्च एकस्मै स्वाहेत्याह अस्मिन्नेव लोके प्रतिष्ठते द्वाभ्यापि स्वाहेत्याह अमुष्मिन्नेव लोके प्रतिष्ठते उभयोरेव लोकयोः प्रतिष्ठते अस्मिग्निश्चामुष्मिग्निश्च श्राय स्वाहेत्याह श्रायर्वै गुरुणश्रदवीर्यः आयुरेव वीर्यमवरुन्धे सहस्राय स्वाहेत्याह आयुर्वे सहस्रम् आयुरेवावरुन्धे सर्वस्मै स्वाहेत्याह अपरिमितमेवावरुन्धे प्रजापतिम् बालेटयेच्छतेत्याह योऽष्टमेधेन यजतयिते अथोऽह सर्वाणि भोजानीति एकस्मै स्वाहेत्याह प्रजापतिर्वालेकः तमेवाप्नोति एकस्मै स्वाहा द्वाभ्यापुस्वाहेत्यभिपूर्वमाहुतेर्जुहोति अभिपूर्वमेव सुवर्गम् लोकमेति एकोत्तरञ्जुहोति एकवदेव सुवर्गम् लोकमेति सन्ततञ्जुहोति सुवर्गस्य लोकस्य सन्तत्ते श्राय स्वाहेत्याः श्रायर्वै पुरुषश्रतवीर्यः आयुरेव वीर्यमवरुन्धे सहस्राय स्वाहेत्याः आयुर्मे सहस्रम् आयुरेवावरुन्धे महिलाय स्वाहा नीताय स्वाहा प्रीताय स्वाहेत्याः त्रयमे लोकाः इमानेव लोकावरुन्धे अर्बुदाय स्वाहेत्याः वाग्वार्बुदम् वाचमेवावरुन्धे निर्बुदाय स्वाहेत्याः यो वै वाचो भूमा कन्यद्बुदम् वाचदेव भूमानमवरुन्धे समुद्राय स्वाहेत्याः समुद्रमेवाप्नोति मध्याय स्वाहेत्याः मध्यमेवाप्नोति अन्ताय स्वाहेत्याः अन्तमेवाप्नोति परार्धाय स्वाहेत्याः परार्धमेवाप्नोति उषधे स्वाहा व्युष्टे स्वाहेत्याः रात्रिर्वापुषाः अहर्व्युष्टिः अहोरात्रे एवावरुन्धे अथो रात्रयोरेव प्रतिष्ठति तायुभरेर्दिवानक्रम् वायुभुजात् अहोरात्रेव हरेत् उडदे स्वाहाभ्युक्ते स्वाहो देक्षते स्वाहो कृते स्वाहेत्यनुजते जुहोति उजिताय स्वाहा दुर्गाय स्वाहा लोकाय स्वाहेत्युजिते जुहोति अहोरात्रयोहव्यजमोहाय विभोर्मात्रा प्रभो पित्रेत्यश्वनामानि जुहोति उभयोरेवैनम् लोकयोर्नामधेयम् गमयति आयनाय स्वाहा प्रायणाय स्वाहेत्युद्रावाञ्जुहोति सर्वमेवे नमस्कन्नकम् सुवर्गम् लोकम् गमयति अग्नये स्वाहा सोमाय स्वाहेति पूर्वहोमाञ्जुहोति पूर्वमेव द्विजन्तम् भ्रातव्यमतिक्रामते पृथिव्ये स्वाहान्तरिक्षाय स्वाहेत्याह यथा यजुरेवेतत् अग्नये स्वाहा सोमाय स्वाहेति पूर्वदीक्षा जुहोति पूर्वमेव द्विजन्तम् भ्रातव्यमतिक्रामते पृथिव्ये स्वाहान्तरिक्षाय स्वाहेत्येकविपुंशनेक्षाज्युहोति एकविपुंशसर्वैदेव लोकाः द्वादशवासाः पञ्चत्तमः त्रयमे लोकाः असावादित्यदेकविपुंसः एषसुवर्गो लोकः सुवर्गस्य लोकस्य समष्टे भो देवानाम् कर्मणे चतुर्दीक्षाजुहोति यतो देवास्त्वयि कल्पयते अग्नये स्वाहा वायवे स्वाहेति जुहोत्यनन्तरित्ये अर्वाणि यज्ञः सङ्ग्रामत्युत्याप्ये द्रोदे स्वर्गस्य लोकस्याप्ये भूतम् भव्यम् भविष्यति मर्याप्ये द्रोदे स्वर्गस्य लोकस्य मर्याप्ये मामे गृहाभवन्दित्याभोद्युहोदे स्वर्गस्य लोकस्याभोप्ये अग्निनाथवान्भवदित्यनुभोद्युहोदे स्वर्गस्य लोकस्यानुभवत्ये स्वाहाधिमाधीताय स्वाहे नमस्कानि वैश्वदेवायजुहोदे समस्तमेव द्विजन्तम् भ्रातव्यमतिक्रामते दर्भ्यस्वाहानोभ्यागस्वाहेत्यङ्गहोपाञ्जुहोदे अङ्गे अङ्गे वै पुरुणस्य पाप्मावसृष्टः अङ्गालङ्गादेवेयम् पाप्मनस्तेन मुञ्चते अञ्जेताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि जुहोदे रूपेणेवेन संसमध्यते ओढधेभ्यस्वाहा मूलेभ्यस्वाहेत्योढधिहोमाञ्जुहोदे दय्यो वा ओढधयः पुष्पेभ्योऽन्याफलम् गृह्णन्ते मूलेभ्योऽन्याः तालयोरवन्धे वनस्पतिभ्यस्वाहेति वनस्पतिहोमाञ्जुहोदे आरण्यस्यान्नाभ्यस्यावरुध्ये मेघस्त्वामृतेरवत्मित्यपाव्यायुहोदे प्राणावै देवा अपाव्याः प्राणानेवावरुन्धे कोऽप्याभ्यस्वाहेत्यपागम् होमाञ्जुहोदे अप्सुवापः अन्नम् वापः अर्भ्यो वा अन्नम् जायते यदेवाभ्योऽन्नम् जायते तदवरुन्धे अम्भागुंसजुहोदे अयम् वै लोकोऽम्भागुंसे तरस्योधिपदयः अग्रज्योतिः यदा भागुंसजुहोदे इममेव लोकमवरुन्धे वसूनागुंसायुज्यम् गच्छते अग्निम् ज्योतिरवरुन्धे नभागुंसजुहोदे अन्तरिक्षम् वै न भागुंसे तस्य रुद्राधिपदयः वायुज्योतिः यन्न भागुंसजुहोदे अन्तरिक्षमेवावरुन्धे रुद्राणागुंसायुज्यम् गच्छते वायुञ्जोरवरुन्धे महागुंसजुहोदे असौ वे लोको महागुंसे तस्यादित्याधिपदयः सौर्योज्योतिः यन्महागुंसजुहोदे अममेव लोकमवरुन्धे आदित्यानागुंसायुज्यम् गच्छते सौर्यञ्जोरवरुन्धे नमो राज्ये नमो वरुणाय यव्यायजुहोदे अन्नाद्यस्यावलभ्ये मयोभोर्वातो अभिवादो स्वा इति कव्यानि जुहोदे पशूनामवलभ्ये प्राणाय स्वाहाव्यानाय स्वाहेति सन्तति होमाञ्जुहोदे स्वर्गस्य लोकस्य सन्तत्ये सिताय स्वाहासिताय स्वाहेति प्रमुक्ते जुहोदे स्वर्गस्य लोकस्य प्रमुक्ते पृथिव्ये स्वाहान्तरिक्षाय स्वाहेत्याह
यथा यजदेवैतत् दत्मते स्वाहा दन्तकाय स्वाहेति शरीरहोमाञ्चहोति यतलोकमेव ते यजमानावरुन्धे कस्त्वायिनक्तिसत्त्वायिनक्तिरिपरिधेनक्ते इमे वै लोकाः परिधयः इमानेवास्मै लोकानियमक्ते सुवर्गस्य लोकस्य रमष्टे यः प्राणतो यात्मदादिति महिमानो जुहोदे स्वर्गो वै लोको महः स्वर्गमेव ताभ्याम् लोकम् विदमानो वरुन्धे आ ब्रह्मन् ब्राह्मणा ब्रह्मवत्कृतेजाय नामिति समस्तानि ब्रह्मवत्कृताणि जुहोदे ब्रह्मवत्कृतमेव ते यजमानो वरुन्धे यज्ञवेदमिदिहोत्यनन्दरित्ये अग्रये समनमत्पृथिव्यै समनमदिति सन्नति होमाञ्जहोदे स्वर्गस्य लोकस्य सन्नत्ये भूताय स्वाहा भविष्यते स्वाहेति भूता भव्यो होमोजहोदे अयम् वै लोको भूताम् असौ भविष्यते अनयोरेव लोकयोः प्रतिष्ठते सर्वस्याप्ये सर्वस्यावरुध्ये यदक्रन्दःपथमञ्जायमान इत्यश्वस्तोमीयम् जहोदे सर्वस्याप्ये सर्वस्य चित्ये सर्वमेव देनाप्नोदे सर्वम् जयते योऽश्वमेधेन यजते यौजैनमेवम् वेद यज्ञकम् रक्षागस्य जिघागम् सन् स्वजेतान् प्रजापदन्नक्रगम् भवानपश्यत् तान् जहोद तैर्वेदयज्ञान् रक्षागस्य वाहन् यन्नक्तकम् होमान् जुहोदे यज्ञादेवते यजमानो रक्षाकस्य वहन्ते उषते स्वाहाव्युष्टे स्वाहेत्यन्ततो जुहोदे स्वर्गस्य लोकस्य समष्टे एकयोपो वैकादशनेव अन्येषाम् यज्ञानाम् योपा भवन्ति एकविपुंशन्यश्वमेधस्य स्वर्गस्य लोकस्याभिजित्ये वैलवो वा खादिनो वा पालाशो वा अन्येषाम् यज्ञकृतूनाम् योपा भवन्ते राज्युदान एकविपुंशत्यरत्नस्वमेधस्य स्वर्गस्य लोकस्य समष्टे नान्येषाम् पशूनाम् ते जन्या अवद्यन्ते अवद्यन्त्यश्वस्य पात्मा वेदे जने पात्मनापहत्ते वृक्षशाखायामन्येषाम् पशूनामवद्यन्ते वेदशाखायामश्वस्य अप्सयो नर्वाश्वः अप्सजो वेदसः स्वदेवाश्रयो नामवद्यते यो वेदग्राम्यान् पशोनि युञ्जन्ते आरोग्येष्वारण्याम् धारयन्ति पशूनाम् व्यावृत्ते आग्राम्यान् पशोन्लभन्ते प्रारण्याम् सृजन्ते पात्मनापहत्ये राज्युदानमज्ञष्ठम् विनोदे भ्रूणहत्यायापहत्ये पौदद्रवा भवितो भवतः पुण्यस्य गन्धस्यावरुध्ये भ्रूणहत्यामेवात्मादपहत्य पुण्येन गन्धेन भेदः परिगृह्णादे षड्वैव भवन्ते ब्रह्मवक्षस्यावरुध्ये षट्खादिनाः तेजसोऽवरुध्ये षट्पालाशाः स्वामेदस्यावरुध्ये एकविपुंसतिः सम्पद्यन्ते एकविपुंसतिर्वेदेव लोकाः द्वादशमासाः पञ्चत्तवः त्रयमे लोकाः असावादित्यजेकविपुंसः एषु भर्गो लोकः सुवर्गस्य लोकस्य समष्टे शतम् वशवो भवन्ते सदाय पूर्णः सदेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठते सर्वम् वाश्वमेऽध्याप्नोति अपरिमिता भवन्ते अपरिमितस्यावलुभ्ये ब्रह्मवायुना वदन्ते कस्मात् सत्यात् दक्षिणतो मेषाम् पशूनाम पद्यन्ते उत्तरतोऽश्वस्येति वारुणो वाश्वः एतामे वरुणस्य दिग स्वायामेवास्य निःशपद्यते यतदेषाम् पशूनाम पद्यते शतदेवत्यन्ते नावरुन्धे चिते ग्रामधिवेदेष्वम् चिनोति अप्सजो निर्वाश्वः अप्सजो वेदसः स्वयेव वेनय्यो नो प्रतिष्ठापयते पुरस्तात् प्रत्यञ्चन्तो परम् चिनोति पश्चात् प्राचीनम् गोमृगम् प्राणापानामेवास्मिन् सम्यञ्चो दधाति नश्वन्तो परम् गोमृगमिदर्बहुतयेताञ्जहोति एषाम् लोकानामभिजित्यै
आत्मनाभिजुहोति सात्मानमेवेन पुंसदनम् करोति सात्मामुष्मिन् लोके भवति य एवम् वेद अथो वसो रेमधारान्तेनावरुन्धे इदुवर्गाय स्वाहा परिवर्गाय स्वाहेत्याः संवत्सरो वा इदुवर्गः परिवत्सरो परिवर्गः संवत्सरादेव परिवत्सरादायनवरुन्धे आयुरेवास्मिन् दधाति तस्मादस्वमेतजादीरथा विश्वरामम् लोकमेति एकविपुंशोभवति एकविपुंशस्तोमः एकविपुंशतिरिजोपाः यथा वा अश्वामृषाणः सज्ञस्फुरेण एवमेवत्स्वर्गस्फुरन्ते यदेकविपुंसाः ते यत्समुच्छेरन् हन्येताः द्वादश एवाग्निस्यादित्याह द्वादशस्तोमः एकादशयोपाः यद्वादशाग्निर्भवति द्वादशमासाः संवत्सरः संवत्सरेणैवात्मान्नमवरुन्धे यद्दशयोपाः भवन्ति दशाक्षरा विराट् अन्नम् विराट् विराडैवान्नाद्यमवरुन्धे यदेकादशः स्तन एवास्यैषः गृहलेवेनान्तेन तदाहो यद्वादशोऽग्निस्याः द्वादशस्तोम एकादशयोपाः यथा स्थूरिणा यायात् ताजग्तत् एकविपुंश एवाग्निस्यादित्याहो एकविपुंशस्तोमः एकविपुंशतरियोपाः यथा कृष्टभिर्याते तादृगेव तत् यो वाश्वमेधेतस्वेद रघुद्धराज्ञाम् भवति एकविपुंशोऽग्निर्भवति एकविपुंशस्तोमः एकविपुंशतिर्योपाः एतावाश्वमेधेतस्वकुभः यदेवम् वेद रघुद्धराज्ञाम् भवति यो वाश्वमेधे त्रीणि शीर्षाणि वेद शिरोहराज्ञाम् भवति एकविपुंशोऽग्निर्भवति एकविपुंशस्तोमः एकविपुंशतिरिजोपाः एतानि वा अश्वमेधे त्रीणि शीर्षाणि तदेवम् वेद शिरोहराज्ञाम् भवति देवा वा अश्वमेधे भवमाने स्वर्गम् लोकम् न प्राजानन् तमश्वप्राजानात् यदश्वमेधेश्वरेण मेऽध्येनो पुञ्चोपरिष्टपमाणम् तर्पन्ते स्वर्गस्य लोकस्य प्रज्ञाज्ञे न वै मनुष्यस्वर्गम् लोकमञ्जसा वेद अश्वो वै सुवर्गम् लोकमञ्जसा वेद विदुद्गातोद्गायेत् यथाक्षेत्रज्ञान्येन तथा प्रतिपादयेत् आदृक्तते उद्गातारमवरुध्य अश्वमुद्गीथायुर्णेत् यथाक्षेत्रज्ञाञ्जसानयते एवमेवैनमश्वस्वर्गम् लोकमञ्जसानयते कुच्छमन्वारभन्ते सुवर्गस्य लोकस्वमध्ये हिङ्करोति स्वामैवागः हिङ्करोति मध्येष एवा सदः वटवा उपरुन्धन्ते विचलत्वाय प्रजाज्ञे असौ यथोपगातार उपगायन्ते तादृगेव तद् उदगासीतस्वामेऽध्यैत्याह राजापत्यो वा अश्वः प्रजापतिरुद्गेशः उद्गेशमेवावरुन्धे अथोरक्षामयोरेव प्रतिष्ठते हिरण्येनोपाकरोति ज्योतिर्वे हिरण्यम् ज्योतिरेव मुखतो दधाति यजमानेन प्रकाशि च अथो हिरण्यज्योतिरेव यजमानस्वर्गम् लोकमेदे पुरुषोगे यज्ञः यज्ञः प्रजापतिः यदस्वे पशोन्न युञ्जन्ते यज्ञादेव तद्यज्ञम् पयुञ्जे अश्वन्तो परङ्गो मृगम् तानग्निष्ठा लभते सेनामुखमेव तत्सज्ञश्यति तस्मात् राजमुखम् भेष्मम् भावकम् आग्नेयम् कृष्णग्रीवम् पुरस्ताल्लाटे पूर्वाग्निमेव तम् कुरुते तस्मात् पूर्वाग्निम् पुरस्ताः स्थापयन्ति ओष्णमन्वञ्चम् अन्नम् वै भूषा तस्मात् पूर्वाग्नावाहार्यमाहरन्ति ऐन्द्रापोष्णमुपरिष्टात् ऐन्द्रो वेदारण्योऽन्नम् भूषा अन्नाद्येनैवेनमुभयतः परिगृह्णादे तस्माद्राजन्योऽन्नादो भावकः आज्ञेयो कृष्णग्रीवो बाहुवोः बाहुवोरेवम् धत्ते तस्माद्राजन्यो बाहुमले भावुकः साष्टौ नो मदक्षौ सख्योः सख्योरेवमेज्यम् धत्ते तस्माद्राजन्यपूर्वभले भावुकः शिवृष्टोपारिहस्पत्यो पृष्ठे ब्रह्मवस्तदमेवोपमरिप्राच्छत्ते असो नवजे अभिरस्पर्योहदे तस्माद्राजन्यः सन्नद्धो वेजम् करोति धात्रैपशो तदमधस्ताय पृष्ठामे वेदाम् कुरुते रथो इयम् वै धाता अस्यामेव प्रतिष्ठते सौर्यम् वलक्षम् उच्छे उत्सेधमेव तम् कुरुते तस्मादुत्सेधम् भजे प्रजा अभिरग्निश्रयन्ति ओ प्रजापतिरश्वमेधमसजत स्वस्मात् सृष्टोपाक्रामद तमष्टादशभिरणप्रायुङ्ग तमाप्नोद् तमाप्त्वाष्टादशभिरमारुन्ध यदष्टादशिनालभ्यन्ते यज्ञमेव तैराप्त्वा यजमानो वरुन्धे संवत्सरस्य वा एषा प्रतिमा यदष्टादशिनः द्वादशमादाः पञ्चत्तमः संवत्सराष्टादशः यदष्टादशिनः लभ्यन्ते संवत्सरमेव ते रात्वा यजमानावरुन्धे अज्ञेष्ठेऽन्यान् पशूनुपाकरोति इतरेषयोपे पृष्टादशिनो जामित्वाय नवनवा लभ्यन्ते तवेर्यत्वाय यदारण्ये सज्ञस्थापयेत् व्यवस्येनाम् पिता पुत्रौ यद्वानक्रामयोः विदोरङ्ग्रामयोग्रामान्तौ स्याताम् वृक्षेकापूर्णम् व्याघ्रात् परिमोषिणाम् व्याधिनेष्टस्करारण्येष्वायारन् तदाहो अपशमोपायेते यदारण्याः यदारण्ये सज्ञस्थापयेत् क्षिप्रेयमानमरण्यम् मृदगम् हरेयः अरण्यायतदारित्यारण्याः पशव इति यत्पशोन्नालभेद अनवरुद्धास्य पशवस्य यत्पर्यज्ञानत्सृजेत् यज्ञमेष सङ्कुर्यात् यत्पशोनालभते तेनैव पशो न वरुन्धे यत्पर्यज्ञानत्सृजत्रयज्ञवेषसाय अवरुद्धास्य पशवो भवन्ति अयज्ञवेषसम् भवते महिलमानमरण्यम् मृदगम् हरन्ति ग्राम्यैः सग्रस्थापयते एते वै पशवः क्षेमो नाम संविधापुत्रावस्थितः समध्वानक्रामन्ते समन्तिकम् ग्रामयो ग्रामान्तौ भवनः दक्षीकापुरुषव्याघ्रा परिमोषिणाव्याधिनेस्तस्करारण्येष्वाजायन्ते प्रजापतिरकामेतौ भो लोकावरुन्धेयेति स एतानुभयान् पशून पश्यत् ग्राम्याकिश्च अरण्याकिश्च तानानुभदा तैरवेतौ भो लोकावारुन्ध ग्राम्येरेव पशुभिरिमम् लोकमवारुन्ध आरण्येरमम् यद्ग्राम्यान् पशूनानुभते इममेव ते लोकमवरुन्धे